वीताखिल विषयेच्छं जातानन्दाश्रुपुलकमत्यच्छं सीतापति दूताद्यं वातात्मजं अद्य भावये हृदयं तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गं सञ्जीवनमाशासे मञ्जुलमहिमानम् अञ्जनाभाग्यम् शम्बरवैरिशरातिगम् अम्बुजदळ विपुललोचनोदारम् कम्बुगळमनिलदिष्टम् बिम्बज्वलितोष्ठम् एकमवलम्बे दूरीकृतसीतार्तिः प्रकटीकृत रामवैभवस्फूर्ति दारित दशमुखकीर्ति पुरतो मम भातु हनुमतो मूर्ति वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशं दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् चिरमिह निखिलान् भोगान् भुक्त्वा श्रीराम भक्तिभाग् भवति।